भवत्प्रभावा विदुरा हि गोपाः तरु प्रपादातिकमत्र गोष्ठे अहेतुमुत्पादगणं विशंक्या प्रयातुमन्यत्र मनोवितेनुः तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् इतः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति बृहद्वनं तत्खलु नन्दमुख्याः विधाय गौष्ठीनमथ क्षणेन त्वदन्वितत्वज्जननी निविष्टगरिष्ठयानानुगता विचेलुः अनो मनोज्ञध्वनिधेनुपाली खुरप्रणादान्तरतो वधूभिः भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यं निरीक्ष्य वृन्दावनम् ईशा नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणिकुट्टिमपुष्टशोभं नवाकनिर्व्यूढनिवासभेदेषु अशेषगोपेषु सुखासितेषु वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यक् अलोकथास्त्वम् अराळमार्गागतनिर्मलापां मराळकूजाकृतनर्मलापां निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वं मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनां विरिञ्चिलोकस्पृशम् उच्छशृङ्गैः गिरिं च गोवर्धनम् ऐक्षथास्त्वं समं ततो गोपकुमारकैस्त्वं समं ततो यत्र वनान्तमागाः ततस्ततस्तां कुटिलामपश्यः कळिन्दजां रागवतीमिवैकां तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे चरन् स रामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॐ तत्सदिति श्रीमन्नारायणीये एकोनपञ्चाशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।